एसा रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल। तनहु जनपदस्य आबु खैरेनी ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य ऐना पहरा स्थाने ह्य भारतीय बसयानस्य दुरापन्नायाम् दुर्घटनायाम् सप्तविंशतिर् जना मृताः सन्ति। पोखरा नगरात काष्ठमण्डपाय प्रस्थिते बसयाने मार्गात मस्याङ दिनद्यां पतिते सति षोडश जनाः आहताः वर्तन्ते। आहतानाम् जनानाम् महाराजगंजवर्तिनी त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालये उपचारः जायमानोस्तीति सशस्त्र प्रहरीबल नेपालेन ज्ञापितम् वर्तते। बसयाने चालकेन सहचालकेन च सहितः त्रिचत्वारिंशत् जनाः आसन्निति सशस्त्र प्रहरीबलस्य सहप्रवक्ता शैलेन्द्र थापा असूचयत्। सहकारी संस्थानाम् वित्तापचलनस्य सम्बन्धे संघटितया संसदीयानुसन्धान विशेष समित्या ह्य गोर्खा मीडिया नेटवर्क प्राली नामाख्यस्य नामाख्यायाः संचार संस्थायाः पूर्व संचालकेन प्रबन्ध निर्देशकेन च रवि लामिछाने इत्यनेन सह प्रश्नोत्तरः विहितोऽस्ति। समितेः ह्यस्तनोपवेशे समितेः कार्यविधेरनुसारेण विभिन्न सहकारी संस्थानाम् वित्तापचलने संलग्नतायाः आरोपितानाम् जनानाम् मध्ये एकेन पूर्वोपप्रधानमन्त्रिणा राष्ट्रिय स्वतन्त्र दलस्य सभापतिना रवि लामिछाने विधेन सह प्रश्नोत्तरः विहितोऽस्तीति समितेः सभापतिः सूर्य थापा अज्ञापयत्। समितेः सचिवस्य पविता मिश्रस्य अनुसारेण ह्य एव गोर्खा मीडिया नेटवर्क प्राली संस्थायाः पूर्व संचालकेन छवि लाल जोशिना सहापि प्रश्नोत्तर ग्रहणम् विहितम् वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति संस्कृतस्य लोकप्रियता न केवलम् नेपाल भारतयोः अपितु आविश्वम् वर्धमाना वर्तते। जयतु संस्कृतम् संस्थया ह शीतल निवासवर्तिनी राष्ट्रपति कार्यालये आयोजिते पुरस्कार वितरण सम्मान प्रदान कार्यक्रमे राष्ट्रपतिः पौडेलः सर्वैः भाषाभाषिभिः सर्वैः भाषाभाषिभिः सर्वेषाम् भाषाभाषिणाम् सम्माने विहिते सति प्रत्येकम् भाषायाः संरक्षणम् समुत्थानम् च सम्भवतीति प्रावोचत। राष्ट्रपतिः पौडेलः नेपाले प्रजातन्त्र स्थापनायाम् जयतु संस्कृतमित्यान्दोलनस्य महती भूमिकास्तीति प्रत्यपादयत्। तदवसरे राष्ट्रपतिनः पौडेलेन प्राध्यापकौ विद्यावारिदिकौ नीलमणि ढुङ्गाना प्राध्यापक पूर्णचन्द्र ढुङ्गेलश्च पुरस्कृतौ। एवमेव राष्ट्रपतिना पौडेलेन प्राध्यापकः डाक्टर ऋषिराम पोखरेलः प्राध्यापकः डाक्टर दीर्घराज घिमिरे प्राध्यापकः डाक्टर रामचन्द्र गौतमः प्राध्यापकः गोविन्द चौधरी प्राध्यापकः चेतनाथ आचार्यश्च समभिनन्दिताः आसन्। कार्यक्रमे सम्मानितेषु प्राध्यापकः ढुङ्गेलः डाक्टर पोखरेलश्च संस्कृत भाषायाः वाङ्मयस्य विकासाय संरक्षणाय च सर्वकारेण ध्यानम् देयमिति प्रावोचताम्। जयतु संस्कृतम् संस्थायाः अध्यक्ष डाक्टर बद्री पोखरेलः सदस्य सचिवः प्राध्यापकः डाक्टर नवराज कट्टेलः प्राध्यापकः डाक्टर मुकुन्द लामिछाने च संस्कृत वाङ्मयस्य विकासाय जयतु संस्कृतमिति संस्थया विहितस्य योगदानस्य चर्चाम् विहितवन्तः। सर्वकारेण काष्ठमण्डप तराई मधेस द्रुत मार्ग योजनाम् मकवानपुर जनपदे आसन्न पञ्चसप्तत्युत्तर नवशताधिक त्रयस्त्रिंशत् सहस्र वर्ग मीटर परिमिताया भूमेः प्राप्त्यर्थम् स्वीकृतिम् प्रदातुम् निर्णीतम् अस्ति। बृहस्पतिवासरे उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिक कर्तुम् संचार सूचना प्रविधि मन्त्रालये ह्य आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ काष्ठमण्डप तराई मधेस द्रुत मार्ग योजनायै स्वीकृतेः प्रदानार्थम् निर्णीतम् अस्ति असूचयत्। एवमेव मन्त्री परिषद उपवेशन नेपाल तैल निगम संस्थाय जितपुर सीमारोप महानगरपालिकायाम आसन पञ्च विगाह परिमिताया भूमे प्राप्ताय स्वीकृति प्रदातुम ललितपुर महानगरपालिकाया कोरिया देशस्य चिरव गुण नगरेण सह भगिनी सम्बन्धस्य स्थापनायै स्वीकृतिम दातुम च टिकटक सामाजिक सञ्जालस्य सशपथम सञ्चालनाय स्वीकृतिम प्रदातुम च निर्णीतम अस्तीति मन्त्री गुरुङ असूचयत। राष्ट्रिय मानवाधिकार आयोगेन भ्रष्टाचार जन्य अपराधे दण्डनस्य समय सीमना आधारेण उन्मुक्ति प्रदानत्वेन अधिनियमे संशोधनम् न कर्तुम् प्रतिनिधि सभायाः राज्य व्यवस्था सुशासन समितिः अनुरुद्धा अस्ति। आयोगेन ह्य भ्रष्टाचार निवारण सम्बद्धम् 69-2000 विक्रम वर्षीयम् अधिनियमम् संशोधयितुम् निर्मिते विधेयके भ्रष्टाचार जन्यापराधे समय सीम्नः आधारेण उन्मुक्तेः प्रदानत्वेन अधिनियमः अग्रे वर्धापितः इत्युल्लिख्य समित्यै पत्राचार विहितोऽस्तीति आयोगस्य प्रवक्ता डॉ टीकाराम पोखरेलः अज्ञापयत्। प्रवक्ता पोखरेलः समय सीम्ना आधारेण उन्मुक्तेः प्रदानत्वेन अधिनियमस्य संशोधन प्रक्रियाम् अग्रे न वर्धयितुम् समित्यै पत्राचार विहितोऽस्तीति असूचयत्। गृहमन्त्री रमेश लेखका राजनीतिक स्थायित्वाय सुशासनाय च विपुल दलद्वयम् मिलित्वा सर्वकार संघटनस्य कार्यम् विहितम् अस्तीति समस्पष्टयति। गृहमन्त्री लेखका धनुषा जनपद प्रशासन कार्यालयस्य प्रमुख प्राशासनिक भवनस्य इह जनकपुर धामनी शिलान्यासं विदधान विपुल दलैः सर्वकार संघटनस्य कति सूचित दिनेष्वेव प्रमुख प्रतिपक्षी दलस्य समर्थनेन 18 वर्षाणि निष्कर्षे अप्राप्तस्य संक्रमणकालिक न्याय सम्बद्धस्य विधेः निष्कर्षे प्रापणस्य कार्यम् सम्भूतम् अस्तीति असूचयत्। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा स्वस्य भारत भ्रमणम् सफलम् सम्भूतमस्तीति निश्चिनोति। कांग्रेस केन्द्रीय कार्य समितेः ह्यस्तनोपवेशे परराष्ट्र मन्त्री राणा देउवा आत्मना असेवा भाद्रस्य द्वितीय दिवसाद षष्ठम् दिवसम् यावत् विहितेन भारत भ्रमणेन नेपाल भारतयोर्मध्ये पारस्परिक सद्भावम् अभिवर्धयितुम् उल्लेखनीय भूमिका निरूढा अस्तीति उदैरयत्। नेकपा माओवादी केन्द्रस्य नेतारः संगठन विस्ताराय ध्यानम् दातुम् प्रभावकारी रूपेण कार्यक्रमान् जनपरिचालनस्य कार्यक्रमान् सञ्चालयितुम् च दलस्य नेतृत्वाय परामृशन्ति। पेरिस डाँडावर्तिनी दलस्य केन्द्रीय कार्यालये ह्य प्रदेश पदाधिकारिणाम् परामर्शोपवेशे नेतारः दलस्य अभ्यन्तरे आन्तरिकताम् सुदृढाम् विधाय संगठन विस्ताराय ध्यानम् दातुम् बलम् अदुः। उपवेशम् सम्बोधयन् दलाध्यक्ष पुष्पकमल दाहाल प्रचण्डः दलस्य सुदृढतायै जायमानम् विमर्शनम् अन्यथा न ग्राह्यम् इति प्रावोचत। तनहु जनपदे डेंगू संक्रान्तानाम् जनानाम् संख्या वर्धमाना वर्तते। अस्यैव भाद्रमासस्य प्रथमे दिवसे 82,100 जनेषु संक्रमणम् पुष्टीभूतम् आसीत्। अधुना 123 च जनेषु संक्रमणम् पुष्टीभूतम् वर्तते। काष्ठमण्डपस्य चन्द्रागिरी नगरपालिकाया द्वितीय वडा क्षेत्रस्य नागढुङ्गा स्थाने बुधवासरे पतितम् भूस्खलनम् अपसार्य ह्यस्तनात् दिवसात् मार्ग पूर्णतया सञ्चालितो वर्तते। बुधवासरस्य प्रातः भूस्खलनेन मार्गोऽसौ आंशिक रूपेण अवरुद्धः आसीत्।